तस्य चिक्केश्वरदेवस्य ब्रह्मपुरीत्वेन साङ्गवेदसकलशास्त्रतदर्थानुष्ठानपरायणान् विप्रान् स्वीकृत्य पूर्वतस्तेषाम् गृहाणि निर्माय ऋत्तिग्रामे तद्देशप्रसिद्धदण्डेन प्रतिवृत्तेर्निर्वर्तनद्वयमिताम् रामगौण्डानुमत्या त्रिंशद्वृत्तिसिद्धये च भुवम् कल्पयित्वा शकवर्षादारभ्य षष्ट्यधिकशतोत्तरसहस्रमिते हेमलम्बिसंवत्सरे फाल्गुनमासे सप्तम्याम् तद्देशनिजवल्लभस्य स्वस्ति समस्तप्रशस्तिसहितम् श्रीमन्महामण्डलेश्वरम् उज्जयिनीपुरवराधीश्वरम् चन्द्रगुप्तान्वयप्रभवम् गुप्तकुलतिलकम् श्रीमञ्जोयिदेवानुमतिम् लब्ध्वा राजपुरुषैरनङ्गुलिप्रेक्षणीयम् सर्वनमस्यम् कृत्वा हिरण्योदकपूर्वकम् नानागोत्रेभ्यो ब्राह्मणेभ्यः त्रिंशद्वृत्तीः प्रादात्।